ईश्वरः परमः कृष्णः सच्चिदानन्द विग्रह अनादिरादि गोविन्द सर्वकारण कारणम् सहस्रपत्र कमलम् गोकुलाख्यम् महत्पदम् तत्कर्णिकारम् तत्थाम तरणम् थंशसम्भवम् कणिकारम् महद्यन्त्रम् षट्कोणम् वज्रकीलकम् षडङ्ग षट्पदिस्थानम् प्रकृत्या पुरुषेण च प्रेमानन्द महानन्द रसेनावस्थितम् हि यत् ज्योतिरूपेण मनुना कामबीजेन सङ्गतम् तत्किञ्जौकम् तदङ्क्षाणाम् तत्पत्राणि श्रियामपि चतुरस्रम् तत्परितः श्वेतदीपाख्यम् अद्भुतम् चतुरस्रम् चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् चतुर्विपुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् शूलारदशभिरानाथम् ऊर्ध्वाधो दिग्विवक्षपि अष्टभिर्निधिभिर्जुष्टम् अष्टभिस्थितिभिस्तथा मनुरूपैश्च दशभिर्दिक्पालाय फलितो व्रतम् श्यामाय गौरैश्च रक्तैश्च शुक्लैश्च पर्षधर्षभै शोभितम् शक्तिभिष्टाभिरद्भुताभिसमन्ततः एवम् ज्योतिर्मयो देवा सदानन्द परात्परः आत्मा रामस्य तस्यास्ति प्रकृत्या न समागमः मायया रममानस्य न वियोगस्तया सह आत्मना रमया रेमे त्यक्त्वा कालम् सशिक्षया नियति सा रमा देवी तत्प्रिया तद्वशम् तदा तालिङ्गम् भगवन् शम्भुर्ज्योतिरूपासनातरः या योनि सा परा शक्तिः कामो बीजम् महद्दरहे लिङ्गायोन्यात्मिका जाता इमा महेश्वरी प्रजः शक्तिमान् पुरुषः सोऽयम् लिङ्गरूपी महेश्वरः तस्मिन् अविरभुलिङ्गे महाविष्णुर्जगत्पतिः सहस्रशीर्ष पुरुषः सहस्राक्ष सहस्रपाद् सहस्रबाहुर्विश्वात्मा सहस्रं स सहस्रसुः नारायण स भगवान् आपस्तस्मात् सनातनात् आविरासीत् करानो निधि सङ्कर्षणात्मकः योग निद्रम् गतस्तस्मिन् सहस्रं स स्वयं महान् तद्रोमाबिलजालेषु बीजम् सङ्कर्षणस्य च हैमनन्दारि जातानि महाभूतावृतानि तु प्रत्यन्तम् एवमेकम् षड् एकम् षड् विशति स्वयम् सहस्रमूढ विश्वात्मा महाविष्णु सनातनः वामाङ्गात् असृजद्विष्णुम् दक्षिणाङ्गात् प्रजापतिम् ज्योतिर्लिङ्गामयम् शम्भुम् कुचदेशद् अवसृजत् अहङ्कारात्मकम् विश्वाम् तस्मात् एतद्व्यजायत अथ थैस्त्रीविधर्विश लीलाम् उद्वहताखिला योग निद्र भगवती तस्य श्रीरिव सङ्गता सशिक्षायाम् ततो नाभेस्तस्य पद्मम् विनिर्ययौ तन्नालम् हेमनालिनम् भ्रमणो लोकमद्भुतम् तद्वाणी पूर्वरूढानि खरानानि परस्परम् सामवाय प्रयोगश्च विभिन्नानि पृथक् पृथक् चित्शक्त्या सजमानोऽथा भगवानादिपुरुषः योजयन्मयया देवो योगनिद्रमकल्पयत् योजयित्वा कृतन्येव प्रविवेश स्वयम् गुहाम् गुहाम् प्रविष्टे तस्मिन्स्तु जीवात्मा प्रतिपूज्यते sanityo nitya sambandha prakritischa paraivasa evam sarvatma sambandham nadyam padmam hare rabhut tatra brahma babad bhuyash chaturvedi chaturmukaha sanjato bhagavat shaktya tatkalam kila choditaha Sushikshayam matim chakre purva samskara samskritaha Tatarsha kevalam dvantam nanyat kim api sarvataha Vacha purutastasmai tasya divya saraswati Kama krishnaya govinda hey gopi jana ityavi Valabhaya priyavaner mantram te dasyati priyam Tapastam tapa etena tavasidhir bhavishyati Atate pesa suchinam prinam govindam avyayam Shweta dvipapatim krishnam gokulkastam paratmaram Prakritya guna rupinya rupinya paryupasitam Sahasradala sambande koti kinchalka brimhite Bhumischintamanistatra kalikare mahasane Samasinam chirarandam jyoti rupam sanataram Shabda ramamayam benum bharayantam mukhambuje Vilasini ghanavritam swaswaram sarabishtutam Atavenu ninarasya trai murti maigatihi Surandhi pravivesashu mukabjani swayambhuvaha Gayatrim gayatastasmad arigatya sarojajaha Samskritaschadi gununa dvijatam agamattata Traya prabhudata virer vignatatatmasagaraha Tushtava vedasarena stotrenanena keshavam Shintamani prakada sanmasukalpa vriksha laksha vriteshu surabira vipalayantam Lakshmi sahasra shata sambrahma setyamanam Govinda mari purusham dhamaham bhajami Venum paranta maravinda lalaya taksham bharavatam samasitam burasundarangam Kandapakoti kamani avishesha shobham govinda mari purusham hamaham bhajami Alola Chandra Kalasadvana Maya Vamshi Ragnangadam Pranaya Kelikala Vilasham Shyamam Tribangalalitam Niyata Prakasham Govinda Mari Purusham Dhamaham Bhajami Niyasya sakalendriya vritti manti Pashyanti panti kalayanti chiram jatanti Ananda chinmaya sadujvala vigrahasya Govinda mari purusham dhamaham bhajami Advaitam achyutam anadim anantarupam Adhyam purana purusham navayovanam cha Veteshu dulamam adulamam atma bhaktau Govinda mari purusham tamaham bhajami Pantastu koti shatavatsara sambragamyo Vayo radhati manaso munipungamanam Sopyasti yaprabara simdya vichintya tatve Govinda mari purusham tamaham bhajami Ekopya saura charitum jagadanda kotim Shakti rasti jagadanda chayaya dantaha Antantarasta paramanu chayantarastam Govinda Nadi Purusham Tamaham Bhajami Yad Bhava Pavitaviyo Manujasta Taiva Samprapya Rupa Mahima Shayanana Bhusha Sukarya Meva Nigama Pratitai Stuvanti Govinda Mari Purusham Tamaham Bhajami Ananda Chinmaya Rasa Pratibhavita Vistabhirya Eva Nijarupa Taya Kalabi Goloka Eva Nivasatya Kilatma Bhuto Govinda Mari Purusham Tamaham Bhajami Premanjana Churita Bhakti Vilochanena Santaksa Deva Hridayeshu Vilokayanti Yamshama Sundaram Achintya Gunaswarupam Govinda Mari Purusham Tamaham Bhajami Ramadi Muti Shukalani Amena Tishtan Nana Vataram Akarod Bhuvanesha Kintu Krishna Swayam Samabhat Paramapumanyo Govinda Mari Purusham Tamaham Bhajami Yasya prabha prabhavato jagadanda koti koti shashesha vasudari vibhuti bhinam tad brahma nishkalam anantam ashesha bhutam govinda mari purusham tamaham bhajami Maya hi asya jagadanda satani sute Traigunya sadvishaya vera vitaya mana Sakbhavalambi parasattvam vishuddha sattvam Govinda mari purusham tamaham bhajami Ananda Chinmaya Rasatmataya Manasu Yapraninam Pratipalam Smaratamupetya Lilayetena Bhuvanani Jayatya Kastram Govinda Mari Purusham Tamaham Bhajami Goloka namni nijatamni taleta tasya Devi Mahesha Haridama Suteshu Teshu Tete Prabhava Nijayami Hitasya Jena Govinda Mari Purusham Tamaham Bhajami Shristi Sthiti Pralaya Sarana Shakti Reka Chayeva Yasya Bhuvanani Vibharti Durga Ichyana Rupam Api Yasya Chatesa Tesa Govinda Mari Purusham Tamaham Bhajami Tadara Vikara Vishesha Yogat Sanjayate Nahitata Pratagasti Heto Yashambhutam Apitata Samupaiti Karyar Govinda Mari Purusham Tamaham Bhajami Jipachireva Hidasantaramavya Petya Vipayate Vidita Hetu Samana Dharma Yastadrige Mehicha Vishnu Chaya Vibhati Govinda Mari Purusham Tamaham Bhajami Ajali Patati Sma Yoga Nidra Mananta Jagadanda Saroma Kupaha Adhara Shaktim Avalamya Param Swamurtim Govinda Mari Purusham Tamaham Bhajami Kanishu Sita Kala Matavalandya Jivanti Loma Vilajaja Kadanda Nata Vishnur Mahansa Ihayasya Kala Vishesho Govinda Mari Purusham Tamaham Bhajami Bhasvanya tasma sakaleshin nijeshu teja Sriyam kiyat prakatayata vitad badatra Brahmaya esha jagadanda vidhana karta Govindamani purusham dhamaham bhajami Yad para pallava yutam bilidaya kumba Vandre pranama samaye saganari raja Vignam vidhantam alamasya jagatrayasya Govindamani purusham dhamaham bhajami Arnir mahi gandhanamam mumuru dishascha Kalastatat mamanasiti jagatrayani Yasmat bhavanti vibhavanti vishanti yamcha Govindamari purusham dhamaham bhajami Shakshuresa sapita sakalagrahanam Raja samasta suramurti rashesha tejaha Yasyagnaya pramiti chamrita kala chakro Govindamari purusham dhamaham bhajami Dharma tapapa nijaya shutaya stapamsi Ramari kita patagavadayascha jiva Yadatra matra vibhava prakata prabhava Govindamari purusham dhamaham bhajami Yastundra gopa matavindra mahosa karma Andhanu rupa palabhajana matunoti Karmani nirdahati kintu cha bhakti bhajam Govindamari purusham dhamaham bhajami Yam krodha kama sahaja pranayani piti Vatsalya moha guru gaurava sevya bhavai Sanchintya tassa sadrishim tanam apurete Govindamari purusham dhamaham bhajami Govindamari purusham dhamaham bhajami Sri Akanta Kanta Parama Purusha Kalpataravo Dhruma Bhumishchinta Mani Ghanamayi Thayam Amritam Kata Ghanam Nadyam Gamanam Abhitam Shri Priyasaki Chiranandam Jyoti Param Abhitara Swadhyam Abhicha Sayatra Shirabhi Sravati Surabhi Vyascha Sumahan Nimesa Dhyakyo Vavrajati Nahi Atrapi Samayaha Bhaje Shweta Dvipam Tamaham Iha Golokam Itiyam Virantaste Shantakshiti Viralachara Katipaye Ato Vacha Mahavishnor Bhagavantam Prajapatim Raman Mahatvarignane Prajasarge Chachinmatihi Pancha Shlokim Mimam Vidyam Vatsatatvam Nibodame Prabhude Jnana Bhaktivyam Atmayananda Chinmayi Ureti Uttama Bhaktir Bhagavat Prema Lakshanam Pramanaistat Saracharaistaravyase Narantaram Monhayanatmanatmanam bhaktimabhyutamam labed Yasya shreyaskaram nasti yaya libritumabnuyat Yasariyatimameva bhaktim tameva sarayet Jharma mandyam parityaja mamekam bhaja vishvasan Yadrishi yadrishi shraddha siddhir bhavati tadrishi Gurvan nirantaram karma loko yamanavartate Tenaiva karmana tyayam mambharam bhaktimikshiti Aham hi vishvasya characharasya Vijam pradanam prakriti pumamscha Maya hitam teja riptam vibarshi vide videhi tvamato jaganti Ishvara paramaha krishna sachirananda vigraha anadi nadi govinda sarvakarana karanam Sri Brahma Sanghita Sampurnam Hari Om.